पुराहयग्रीवमहासुरेण षष्ठान्तरान्तोद्यतकाण्डकल्पे निद्रोन्मुख ब्रह्ममुखात् हृतेषु वेदेषु अधित्तः किल मत्स्यरूपम् सत्यव्रतस्य द्रमिळाधिभर्तुः नदीजले तर्पयतः तदानीम् कराञ्जलौ सन् ज्वलिताकृतिस्त्वम् अदृश्यथाः कश्चन बालमीनः क्षिप्तम् जले त्वाम् चकितम् विलोक्य निन्ये अम्बुपात्रेण मुनिस्वगेहम् स्वल्पैः अहोभिः कलशीम् च कूपम् वापीम् सरश्च आनसिषे विभो त्वम् योगप्रभावात् भवदाज्ञयैव नीतस्ततस्त्वम् मुनिना पयोधिम् पृष्टो मुना कल्पदिदृक्षुमेनम् सप्ताहमास्वेति वदन् अयासीः प्राप्ते त्वदुक्ते हनि वारिधारा परिप्लुते भूमितले मुनीन्द्रः सप्तर्षिभिः सार्धम् अपारवारिणि उद्घूर्णमानः शरणं ययो त्वाम् धराम् त्वदादेशकरीम् अवाप्ताम् नौरूपिणीम् आरुरुहुस्तदा ते तत्कम्पकम्प्रेषु च तेषु भूयः त्वम् अम्बुधेः आविरभूर्महीयान् धषाकृतिम् योजनलक्षदीर्घाम् दधानम् उच्चैस्तरतेजसम् त्वाम् निरीक्षतुष्टाः मुनयस्त्वदुक्त्या त्वत्तुङ्गशृङ्गे तरणिम् बबन्धुः आकृष्टनौको मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् संस्तूयमानो नृवरेण तेन ज्ञानम् परम् चोपदिशन् अचारीः कल्पावधौ सप्तमुनीन् पुरोवत् प्रस्थाप्य सत्यव्रतभूमिपम् तम् वैवस्वताख्यम् मनुम् आदधानः क्रोधात् हयग्रीवम् अभिद्रुतोऽभूः स्वतुङ्गशृङ्गक्षतवक्षसं तम् निपात्य दैत्यम् निगमान् गृहीत्वा विरिञ्चये प्रीतहृदे ददानः प्रभञ्चनागारपते प्रपायाः ॐ तत्सदिति श्रीमन्नारायणीये द्वात्रिंशं दशकं समाप्तं श्रीहरये नमः रमा रमणगोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।